ॐ गुरुभ्यो नमः अगजानन पद्मार्कं गजानन महर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे श्रीमहागणपतये नमः गुरवे सर्वलोकानां भीषजे भवरोगिणां निजये सर्वविद्यानां दक्षिणामूर्तये नमः अस्मद्गुरुचरणारविन्दाभ्यां नमः ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे श्रीहयग्रीवमूर्तये नमः सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः अस्मद्गुरुचरणारविन्दाभ्यां नमः सर्वेभ्यो नमः महोदय धन्यवादः
सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि भावे प्रयोगः च इति अस्तु तर्हि तत्र आरम्भे तत्र किञ्चित् पुनस्मरणं भवेत् तदनन्तरं तत्र गृहपाठः इति आसीत् तत्र पञ्चवाक्यानि लिखन्तु इति तत्र लोट्लकरे सरलवाक्यानि लिखन्तु इति आसीत् अतः तत्र किन्तु प्रथमतया किञ्चित् पुनस्मरणं कुर्मः तत्र कम्पते इति तस्य तत्र आत्मनिपदि धातु तस्य लट्लकारः रूपाणि अपि लोट्लकाररूपाणि तत्र शोभा भगिनी कम्पते लट्लकारे रूपाणि कथं भवन्ति
आं महोदय तत्र कम्पते कम्पेते कम्पन्ते कम्पसे कम्पेथे कम्पध्वे कम्पे कम्पावहे कम्पामहे लोट्लकार कम्पतां कम्पेतां कम्पन्तां कम्पस्व कम्पेथां कम्पध्वं कम्पै कम्पावहि कम्पामहै
समीचीनम् उत्तमं भगिनि अस्तु अस्तु तर्हि तत्र एतानि रूपाणि ज्ञातव्यानि यतोहि तत्र अस्माकं मुख्यविषयः अस्ति तत्र कर्मणि प्रयोगे कर्मणि अपि भावे प्रयोगः किन्तु लोट्लकारे तत्र आत्मनेपदिधातु इव भवन्ति अतः तत्र आत्मनेपदिधातूनां लोट्लकारस्य ज्ञानम् अपेक्षितम् अस्ति अस्तु तर्हि अतः तत्र अस्तु कम्पते इति भवती कृतवती उषा भगिनी तत्र वर्तते इति करोति वा
वर्धते वा महोदय
वर्धते अस्तु वर्धते
वर्धते वर्धे लोट्लकारे वर्धते
लट्लकारः प्रथमतया तदनन्तरं लोट्लकारः
वर्धते वर्धेते वर्धन्ते वर्धसे वर्धेथे वर्धध्वे वर्धे वर्धावहे वर्धामहे लोट्लकार लट्लकार लोट्लकार न महोदय
पुनः लोट्लकारः
वृद्ध्यताम् इति भवति वा महोदय
लोट्लकार वर्धते वर्धतामेव
वर्धतां वर्धेतां वर्धन्तां वर्धस्व वर्धेत्थां वर्धध्वं वर्धै वर्धावहे वर्धामहे इति भवति
अस्तु इदानीं वेदभगिनी शोभते इति
शोभते शोभते शोभेते शोभन्ते शोभसे शोभेथे शोभद्वे शोभै शोभावहै शोभामहै
शोभे भगिनि न शोभै शोभे
शोभे सारि शोभे लोट्लकाररूपं कर्मणि प्रयोगे भावे प्रयोग वा कर्मणि प्रयोग वा शोभ
साधारणधातु
शोभ शुभ धातु शुभ्यतां वा तद् शुभ्यतां
शोभते अस्ति चेत् लोट्लकारे शोभताम् एव भवति खलु
आम् आम् आं करोति शोभतां शोभेतां शोभन्तां शोभस्व शोभेथां शोभध्वं शोभै शोभावहै शोभामहै
इति भवति अस्तु समीचीनम् इदानीं तत्र तत्र लट्लकारः लोट्लकारः आत्मनेपदिधातूनां सर्वे उक्तवन्तः अस्तु इदानीं तत्र वाक्यानि श्रावयन्तु इति वक्तुमिच्छामि तत् कथं वयं तत्र भवत्यः सर्वे वाक्यानि सर्वे न सर्वाः भवत्यः सर्वाः वाक्यानि श्रावयन्तु इति तत् कर्मणि तस्य वाक्यस्य कर्मणि प्रयोगः कः
एकवारं पुनः वदतु महोदय सर्वाः
भवत्यः भवत्यः लिखितानि वाक्यानि श्रावयन्तु इति वाक्यं भवत्यः लिखितानि वाक्यानि श्रावयन्तु इदानीं तत्र कर्मणि प्रयोगः कर्मणि प्रयोगे कथं भवति एतद् वाक्यं भवत्यः
भवद्भिः सर्वाणि वाक्यानि लिखितानि वाक्यानि श्रावयन्तु इति उक्तवान् न महोदय
श्रावयन्तु
लिखितानि वाक्यानि श्राव्यन्ताम् इति
श्राव्यन्ताम्
श्रावयन्ताम् इति भवति
श्रावयन्ताम् इति वा
श्रावयतु श्रावयति
श्रावयतां श्रावयेतां श्रावयन्ताम्
श्रावयन्ताम्
भवतीभिः इति भवति वा किल
किं भगिनि
भवतीभिः इति भवति वा
हा भवद्भिः
नदीभिः
हा नदीभिः भवतीभिः भवतीभिः तत्र भवद्भिः तत्र पुल्लिङ्गे भवति खलु
पुल्लिङ्गे भवति
स्त्रीलिङ्गे भवतीभिः समीचीनं भवतीभिः लिखितानि वाक्यानि श्रावयन् श्रावयन्ताम् इति भवति समीचीनम् अस्तु अत्र का प्रथमं वाक्यं वदति
अहं वदामि वा महोदय
अस्तु भगिनि
पञ्चवाक्यानि वदामि वा
प्रथमती एकं वदतु
सम्भाषणसन्देशः अमृतवचनं पठतु सम्भाषणसन्देशेन अमृतवचनं पठ्यताम्
कर्तृप्रयोगरूपं किमस्ति
सम्भाषणसन्देशः अमृतवचनं पठतु
तत्र कर्तृपदं किम् अस्ति
अमृतवचनं न महोदय न सन्देशः
सन्देशः अस्तु अपि तत्र कर्मपदम् अस्ति वा
पठतु इति अस्ति न महोदय क्रियापदम् अमृतवचनम् इति मन्ये महोदय
अमृत भवती भवत्याः वाक्यमेव अस्ति खलु अतः किमर्थ
अमृतवचनं महोदय
कर्मपदं किम् अस्ति इति अन्येषां वाक्यमस्ति चेत् इति मन्ये इति वदामः किन्तु
अस्तु महोदय अमृतवचनं महोदय
अमृतवचनम् अस्तु तत्र वाक्यस्य अर्थः कः भगिनि
सम्भाषणसन्देशपुस्तकमस्ति न महोदय अमृतवचनमस्ति न महोदय तदेव पठतु इति
किन्तु तत्र कः पठति
ओ सा इति वक्तव्यं महोदय सा
तत्र सम्भाषणसन्देश भवत्याः वाक्यं पुनः
सम्भाषणसन्देशः अमृतवचनं पठतु
अस्तु इदानीं तत्र रामः ग्रन्थं पठति इति अस्ति चेत् तत्र कर्तृपदं किम् अस्ति
रामः ग्रन्थं
कर्तृपदं किम् अस्ति
रामः
नाम रामः एव पठति खलु
आं महोदय
इदानीं भवत्याः वाक्ये सम्भाषणसन्देशः इति कर्तृपदम् इति उक्तवती
क्षम्यतां रामः सम्भाषणसन्देशः अमृतवचनं पठतु
इदानीं तत्र रामः इति कर्तृपदं वा सम्भाषणसन्देशः इति कर्तृपदं वा
रामः इति कर्तृपदम्
किन्तु सम्भाषणसन्देशः तत्र विभक्ति का
प्रथमविभक्ति एव महोदय
किमर्थम्
कर्मणि प्रयोगे सम्भाषणसन्देशेन
कर्तृप्रयोगवाक्यं खलु रामः इति इदानीं भवती रामः इति अपि स्थापितवती वाक्ये अतः इदानीं वाक्यं रामः सम्भाषणसन्देशः
अमृतवचनं पठतु
अमृतवचनं पठतु
तत्र अन्यत् रामः सम्भाषणसन्देशस्य इति वक्तव्यं वा महोदय
भवती एव वदतु भगिनि तत्र नूतनविषयः नास्ति केवलं कर्तृपदं कथं भवेत् कर्मपदं कथं भवेत् एतत् भवती तु किम् एतत् सर्वं जानाति एव अतः किमर्थं क्लेशः अस्मिन् विषये तत्र सम्भाषणसन्देशः साक्षात् पठति वा
न सम्भाषणसन्देशस्य अमृतवचनं पठतु
अस्तु रामः सम्भाषणसन्देशस्य अमृतवचनं
पठतु रामेण रामेण सम्भाषणसन्देशः तत्र क्लेशः भवति महोदय सम्भाषणसन्देशेन इति परिवर्तनं भवति वा
उक्तवान् भगिनि सरलवाक्यानि लिखन्तु यत्र भवती जानाति तत्र गृहपाठः अस्ति तत्र सर्वं तत्र यत् जानीमः तेन आधारेण करणीयं न तत्र अस्तु किञ्चित् चिन्तयतु अन्ये अपि वाक्यानि कुर्वन्ति
श्रावयन्ति
न इदानीम् एकं वाक्यं पर्याप्तं भगिनि पुनः आगच्छामः अस्तु वेदा भगिनी नरेश महोदय नमस्कारः वंशीसुधा भगिनी नमस्कारः
नमस्कारः
महोदय नमस्कारः भगिनी वंशीसुधा
गृहपाठं किम् आसीत् महोदय
पञ्चवाक्यानि लिखन्तु इति वाट्साप् मध्ये प्रेषितुं लोट्लकरे पञ्चवाक्यानि कुर्वन्तु सरलानि वाक्यानि लिखन्तु यत् जानन्ति तदेव लिखन्तु यत् न जानन्ति तद् मा लिखन्तु इति
लोट् लकार अपि च कर्मणि प्रयोगकरणे
कर्मणि लोट् मध्ये
कर्मणि लोट् मध्ये अस्तु
कर्मणि
कर्तरि लोट्
वाट्साप् कुत्र
वाट्साप् मध्ये न वाट्साप् मध्ये प्रेषितं वा भवता
वाट्साप् कुत्र अस्ति
कुत्र अस्ति
वाट्साप् नास्ति
अहं तु पूर्वं
न जानामि
अहमपि न जानामि महोदय वाट्साप् ग्रूप् किं
वा अस्तु अस्तु चिन्ता मास्तु अद्य पुनः अहं तत्र वाट्साप् लिङ्क् प्रेषयामि
अस्तु
इदानीं किन्तु एकमेकं वाक्यम् अग्रे श्रावयन्तु किन्तु भगिनि भवती एकं वाक्यं लोट्लकारे
अहं वदामि वा
अथवा शोभा भगिनी करोति वा
अस्तु महोदय करोमि वेदा भगिनी कर्तुं सिद्धा अस्ति इति मन्ये
किन्तु भवती करोतु तदनन्तरं वेदा भगिनी करोति
प्रथमं वाक्यम् अद्यतनवर्गे अस्माभिः पञ्चवाक्यानि रच्यन्ताम्
अस्माभिः पञ्चवाक्यानि
रच्यन्ताम् तत्र अस्माभिः इति तृतीया कर्तृ पदं तृतीया विभक्तौ वाक्यानि इति तत्र नपुंसकलिङ्गः एव अतः प्रथमविभक्तौ अपि वाक्यानि एव भवति वाक्यानि इति तत्र कर्मपदम् अनुसृत्य कर्मणि प्रयोगः भवति क्रियापदस्य कृते तत्र वाक्यानि इति बहुवचने अतः रच्यन्ताम् इति तत्र रच्यन्ताम् इति दृष्टवती महोदय तत्र प्रयोगविस्तरः इति पुस्तके रच्यन्ताम् इति अन्यस्मिन् वाक्ये उदाहरणमस्ति प्रयोगः कृतः स्वीकृतवती आम्
अस्तु रच्यन्ताम्
रच्यन्ताम् इति अस्ति आम्
अस्तु भगिनि अस्तु
अथवा रचयन्ताम् इति अपि सम्यक् एव किल
इति मन्ये अस्तु किन्तु यद् तत्र पुस्तके हेगडे महोदयस्य पुस्तके अस्ति चेत् तत्र क्लेशः एव नास्ति अस्तु
नास्ति अथवा निर्मीयन्ताम् इति अपि भवति
तदपि समीचीनमेव अस्ति समीचीनं भगिनि उत्तमम् अस्तु इदानीं वेदा भगिनी
जनाः चित्रं पश्यन्तु इति कर्तरि प्रयोगे कर्मणि प्रयोगे जनाः जनैः चित्रं चित्रमेव अस्ति नपुंसकलिङ्गे चित्रं दृश्यतां
दृश्यतां किमर्थम् इदानीम् एकवचने
किमर्थं चेत् चित्रम् एकवचने अस्ति कर्म 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 आश्रित्य तस्य रूपम् आयाति प्रथम
तत्र एकवचने जनाः समीचीनं भगिनि इदानीं तत्र जनाः रामस्य चित्रं पश्यन्ताम् इति अस्ति पश्यन्तु इति अस्ति चेत्
रामस्य चित्रं पश्यन्तु अस्ति चेत् जनैः राम रामस्य चित्रमेव रामस्य एव तत्र आयाति रामस्य चित्रं दृश्यतां
दृश्यताम् इति भवति तत्र किमर्थं रामस्य इति पदस्य परिवर्तनं
रामस्य षष्ठीविभक्तिः अस्ति तदेव तस्य रूपं तदेव तिष्ठति
केवलं षष्ठीविभक्ति इति कृत्वा वा अथवा किं
न न न कोऽपि कर्म कर्मणि कर्मपदम् अनुसृत्य कृप
नाम
क्रियापदमायाति अन्य कोऽपि तत्र अस्ति चेत् तस्य रूपं तदेव तिष्ठति
नाम तत्र
प्रथम नाम तृतीया विभक्ति अस्ति चतुर्थीविभक्ति षष्ठीविभक्ति पञ्चमीविभक्ति अस्ति चेत् तस्य रूपस्य परिवर्तनं न भवति
नाम तत्र कर्तृपदं नास्ति चेत् परिवर्तनं न भवति परिवर्तनं भवति कर्मपदम् अस्ति चेत् परिवर्तनं भवति अन्यमस्ति चेदपि परिवर्तनं भवति विशेषणं
विशेषणं विशेष्यं
अनुसृत्य तत्रापि परिवर्तनं भवति किन्तु अन्येषां पदानां परिवर्तनं
न
भवति अस्तु इदानीम् उषा भगिनि भवत्याः वाक्यं पुनः पठित्वा कर्मणि रूपं वदतु भगिनि
तदेव वाक्यं महोदय अन्यत् वाक्यं
रामः रामः सम्भाषणसन्देशः
रामः सम्भाषणसन्देशः सम्भाषणसन्देशस्य अमृतवचनं पठतु रामेण सम्भाषणसन्देशः अमृतवचनं पठ्यताम्
इति वेदा भगिन्याः वाक्यं श्रुतवती खलु
आं महोदय परिवर्तनं न भवति इति रामेण सम्भाषणसन्देशस्य अमृतवचनं पठ्यताम्
हा इति अस्ति समीचीनं वा
आं महोदय
हा तत्र इदानीं तत्र उत्तमः रामः सम्भाषणसन्देशस्य अमृतवचनं पठतु अस्ति चेत् किं भवति
उत्तमेन रामेण सम्भाषणसन्देशस्य अमृतवचनं पठ्यताम्
इति भवति अस्ति समीचीनं भगिनि हा अस्तु इदानीं तत्र नरेश् महोदय तत्र एकं वाक्यं वदतु महोदय मधुसूदन् महोदय नमस्कारः
नमस्कारः महोदय नमस्कारः महोदय क्षमताम् अद्य शृणोमि एव
अस्तु अस्तु चिन्ता मास्तु महोदय तत्र कर्मणि भाविप्रयोगः लोट् लकार इति मूलविषयः
अस्तु महोदय
पेज् 136 इति किमपि अस्ति महोदय तत्र स्मः वयम्
अस्तु महोदय धन्यवादः
अस्तु नरेश् महोदय
सरलवाक्यं सीता ग्रन्थः ग्रन्थं पठतु कर्मणि प्रयोगे सीतया ग्रन्थः पठ्यताम्
इति अस्ति अस्तु समीचीनं हा अस्तु इदानीं तत्र पुनः तत्र शोभा भगिनी द्वितीयवाक्यम्
आं महोदय माता पुत्रीं वदति भवत्या त्वरया उत्थीयतां सिद्धा भूयताम् इति तत्र भवत्या इति भवती इत्यस्य तृतीया विभक्ति अपि च कर्तृपदं त्वरया इति तु तृतीया विभक्ति अस्ति तत्र किमपि परिवर्तनं न भवति तत्र स्था इति धातुः अपि भू इति धातुः अकर्मकधातु अतः कर्मपदं न स्वीकुर्वन्ति तर्हि तत्र भवती त्वरया उत्तिष्ठतु सिद्धा भवतु इति वाक्यस्य भवत्या त्वरया उत्तिष्ठतु इत्यस्य उत्थीयताम् सिद्धा भवतु इत्यस्य सिद्धा भूयताम् इति भवति.
तत्र प्रथमं वाक्यं समीचीनं, तत्र द्वितीयवाक्यं तत्र भूयताम् इति
भवत्या सिद्धा भूयताम् इति न भवति वा सिद्धा महोदय?
तत्र अस्तु, तत्र कर्तृरूपं वदामः, तत्र सिद्धा भवतु इति अस्ति खलु? हा, सिद्धा भवतु. तत्र सिद्धा इति कर्तृपदं वा कर्मपदं वा किम्?
ओ तत्र अहं तत्र सिद्धा इति
का सिद्धा भवति?
भवति भवति सिद्धा भवतु इति सम्यक् किल महोदय? भवती सिद्धा भवतु,
भवती सिद्धा भवतु, समीचीनं. तद् वाक्यं स्वीकुर्मः, भवती सिद्धा भवतु. तत्र सिद्धा इत्युक्ते सिद्धा इति पदस्य अन्वयः
कर्मपदं नास्ति,
कर्मपदं नास्ति, अतः सिद्धा नाम का?
भवति एव.
हा, तत्र कीदृशसम्बन्धः?
हा 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 हा, तत्र अस्तु अस्तु, भवत्या सिद्धया भूयताम्
इति.
अस्तु, तत्र क्लेशः आसीत् एव महोदय.
तावदेव,
धन्यवादः.
विशिष्य भावः अस्ति अतः
भवत्या त्वरया उत्थीयतां सिद्धया भूयताम् इति.
हा, त्वरया तु तत्र त्वरया इति तत्र क्रियविशेषणम् इति चिन्तयितुं शक्नुमः, तत्र परिवर्तनं न भवति, किन्तु सिद्ध इति कर्तृपदस्य
विशेषणम्. अस्तु अस्तु, भवती सिद्धा. अस्तु,
अच्छा, तत्र भवती इति योजयामश्चेत् तत्र स्पष्टं भवति. अस्तु, एतद् विशेषणम् अस्ति इति खलु? समीचीनम्.
अहं भवती इत्यस्य भूयताम् इत्यस्य कृते कृतवती, तत्तु असमीचीनम् एव, भवत्या भूयताम् इति न. अस्तु,
भवत्या
सिद्धया भूयताम्, भूयताम् इति भवति किन्तु सिद्धया अपि परिवर्तनीयम्. भवत्या भूयताम् कीदृशया भूयताम् इत्युक्ते सिद्धया भूयताम्
इति अस्ति. तावदेव, समीचीनम् अस्तु. उषा भगिनी, इदानीं द्वितीयवाक्यम्.
आं महोदय, भवान् छात्रं बोधयतु, भवता छात्रः बोध्यताम्.
हा, तत्र बोध, तत्र धातुः कः?
बुद्ध धातुः.
बुद्ध, बुद्ध धातुः अस्ति चेत् तत्र किं भवति? वयं तत्र
उकार
बुद्ध धातुः अस्ति चेत् भगिनि तत्र किं भवति?
उकार
नाम तत्र तत्र बो अपि तत्र कर्तृप्रयोगे वाक्यं किम् आसीत्?
बोधयतु महोदय.
हा, बोधयतु. अहं चिन्तयामि तत्र बोधय, बोधय इति अस्ति खलु, तत्र मूलधातुः बोधय, बोध्यताम्.
परन्तु धातु मूलरूपं बुद् अस्ति न महोदय? बुद् योग
नीचपि अस्ति भगिनि. हा, नीचपि अस्ति.
ओ, नीच बोधि,
तत्र बोधति इति नास्ति खलु? अस्तु, तत् प्रायशः समीचीनमेव अस्ति इति मन्ये भगिनि. हा, किञ्चित् मम मनसि एषः अस्ति, किन्तु तत्र कर्मणि प्रयोगरूपं किम् उक्तवती?
बोध्यताम् इति महोदय.
बोध्यताम्,
बुध्यताम् इति भवति वा?
न, बुध्यतां नास्ति, किन्तु तत्र यतोहि तत्र नीच अस्ति भगिनि. हा
महोदय, तत्र बोधि इति यथा निजन्तरूपं भवति, अपि च यक् प्रत्यय आगच्छति, तत्र इकारस्य लोपः भवति महोदय केनचित् सूत्रेण. धन्यवादः भगिनि. नेरनिटि इत्यनेन नेः अनिटि, अनिट्
अतः तत्र अस्तु अतः तत्र
इकारस्य लोपः भूत्वा बोध् एव तिष्ठति अतः बोध्यताम् एव भवति
बोध्यताम् इति एव भवति अस्तु णिच् अस्ति इति कृत्वा
णिच् अस्ति चेत्
नो चेत् तत्र बुद्ध् इति एव
रूप्यताम् इति भवति
अस्तु बोध्यताम् अस्तु समीचीनं भगिनि उषा भगिनि अस्तु समीचीनम् अस्तु तर्हि तत्र पञ्चवाक्यानि इति चिन्तितवान् किन्तु वाक्यद्वये एव तत्र बहु समयः जातः अस्तु अग्रे सरामः तर्हि तत्र भवत्यः तत्र उक्तवन्तः तत्र लट्लकारे लोट्लकारे तत्र आत्मनेपदी धातूनां रूपाणि किन्तु तत्र नरेश् महोदय न उक्तवान् अतः तत्र नरेश् महोदय तत्र किं स्वीकुर्मः तत्र आत्मनेपदी धातुः किमपि स्वीकरोतु महोदय धातुं स्वीकृत्य लट्लकररूपाणि लोट्लकररूपाणि वदतु
लट्लकार लोट्लकार आत्मनेपदी किं सेवधातु
अस्तु हा समीचीनं हा
अत्र किं नवरूपाणि
कर्तृ कर्तृरूपमेव कर्तृ लट् कर्तृलट्
कर्तृ लट् सः
मास्तु केवलं तत्र क्रियापदस्य रूपाणि
क्रियापदस्य रूपाणि सेवते तस्य नवरूपाणि अथवा एकं नव सेवते सेवेते सेवन्ते सेवसे सेवेथे सेवध्वे सेवे सेवावहे सेवामहे
इदानीं तत्र लोट्लकारे
लोट्लकारे लोट्लकारे तु सेवां सेवेतां सेवन्तां सेवस्व सेवेथां सेवध्वं सेवै सेवै सेवावहै सेवामहै
इति अस्ति समीचीनं अस्तु तर्हि इदानीं तत्र वयं
महोदय एकः प्रश्नः एकं वाक्यं वदामि तत्र सम्यक् वा साधु वा इति वदतु महोदय तत्र त्वम् इति उपयुज्य कृतवती अतः कोलाहलं करोषि चेत् त्वं पित्रा तर्जस्व
त्वं कोलाहलं करोषि चेत्
पित्रा तर्जस्व
पित्रा इति पित्रा हा पित्रा त्वं
तर्जस्व
हा इति एव भवति यतोहि कर्मपदं त्वम् इति भवति खलु पिता त्वां तर्जयति इति
तत्र तर्हि तत्र कर्तृपदं पित्रा भवति कर्मपदं त्वम् अतः तर्जस्व
इति
अस्तु महोदय धन्यवादः
समीचीनम् अस्तु तर्हि इदानीं तत्र पुस्तकं पश्यामः तत्र इदानीं वयं प्रायशः तत्र कुत्र स्मः इत्युक्ते तत्र 136 कृतवन्तः 137 करणीयम् इति मन्ये खलु प्रथमाभ्यासः तत्र अस्तु अस्तु तर्हि तत्र आरम्भं करोति वा भगिनी उषा भगिनी
आं महोदय यतोदाहरणं रिक्तस्थानानि पूरयत् कर्तरि प्रयोग अपि कर्मणि प्रयोग तत्र दत्तमस्ति प्रथमं वाक्यम् अस्ति कर्तरि प्रयोगे रक्षतु कर्मणि रक्ष्यताम् पठामि वा महोदय
पठतु भगिनि
नयतु नयताम्
न न न नयतं नास्ति इति चिन्तनीयमस्ति भगिनि
नीदातु
नयतु नीयते इति भवति महोदय
कर्मणि लट् कर्मणि लोट्
नीयताम् इति
नीयतां समीचीनं
नीयताम् ऊहताम् इति अस्ति ऊह धातु ऊहते इति भवति यक् प्रत्यायति चेत् ऊह्यताम् इति भवति वा महोदय
ऊह्यताम् समीचीनम् इति एव समीचीनम् अस्तु इदानीम् अग्रे एकम् अन्यत् एकमपि करोतु तदनन्तरम् अन्य
वन्दतां वन्दते इति भवति वन्द्यते वन्द्यतां
वन्द्यतां समीचीनं वन्द्यतां समीचीनम् अस्तु अग्रे वेदा भगिनी
महोदय एकः प्रश्नः ऊहताम् ऊहतां तत् एकवचने अस्ति अपि च द्विवचने ऊहताम्
ऊहतां
तु द्विवचने कर्तरिप्रयोगे द्विवचने अस्ति ऊहताम्
आमामां कर्तरि धन्यवादः महोदय अहं चिन्तितवान् न चिन्तितवान् हा हा धन्यवादः महोदय महोदय धन्यवादः महोदय अस्तु हा 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 सत्यं धन्यवादः महोदय
द्विवचने किमस्ति द्विवचने ऊह्येताम्
अस्तु तर्हि तत्र
क्षम्यतां महोदय तत्र ऊहताम् इति तत्र वर्ततां इति एकवचने अस्ति लोट् लकारे वर्ततां वर्तेताम् इति
वन्दतामपि
तत्र
कर्तरि एव किल महोदय प्रथमं वन्दतामिति कर्तरि एव अस्ति ऊहताम् इति कर्तरि प्रयोगे एव अस्ति तत्र
परन्तु परस्मैपदी अस्ति
परस्मैपदी नाम
आत्मनेपदी
ऊहते इति आत्मनेपदी धातु अस्ति इति मन्ये महोदय खलु
ऊहताम् इति आत्मनेपदी प्रयोगः तत्र एकवचने कर्तरिप्रयोगे आत्मनेपदी तत्र वृत्तधातोः वर्ततां वर्तेताम् इति भवति वर्तन्ताम्
वन्दतां वन्देतां वन्दन्ताम् इति भवति न महोदय तदेव न महोदय ऊहतामपि
महोदय तत्र
अहं भवान् चिन्तितवान्
परस्मैपदीरूपम्
अहं परस्मैपदी अस्ति चेत् परस्मैपदी तत् भवति किन्तु अत्र आत्मनेपदी धातु अस्ति
अस्तु अस्तु
अतः तत्र आत्मनेपदी
तत्तु सम्यक् अस्ति
एक प्रथमपुरुषे एकवचने एव अस्ति तत्र अतः तत्र केवलं धातुः कः इति न किन्तु तत्र धातु परस्मै वा आत्मनेपदी धातु वा इति अपि
ईक्षधातु तत्र ईक्षते आत्मनेपदीरूपम् अस्ति तदेव तस्य ईक्षतां कर्तरी लोट्लकारे कर्तरी प्रथम एकवचने अस्ति ईक्षतां तस्य कर्मणि प्रयोगे तस्य रूपम् अस्ति ईक्ष्यताम् सहतां सहधातु परस्मैपदीरूपम् अस्ति या आत्मनेपदीं वा सहतां सहते वा सहते अस्ति चेत् सहतां कर्तरि एकवचनरूपमध्ये सह्यतां सह्यताम् आह्वयतु तत्र हुदात्तु आह्वयतु कर्तरि प्रथमपुरुषे परस्मैपदीरूपम् अस्ति आह्वयतु तस्य कर्मणि रूपम भवति आहूयते न आहूयताम् इति वा आहूयताम्
आह्वयताम्
आहूयताम् हू धातु हू धातु अस्ति ते हू योग य योगताम् आहूयताम् एव
धातु
ह्वे धातु वा
हा ह्वयति इति भवति ह्वयताम् इति प्रायशः आत्मने
ह्वे धातु अस्ति चेत्
आह्वयति परस्मैपदी
आह्वयतां वा अपि
आहूयताम् आहूयताम् इति एव अस्ति भगिनि सत्यम् आहूयताम् तत्र तत्र ह्वयति इति अस्ति कर्तृ लट् लकारे ह्वयति ह्वयते तत्र उभयपदी अस्ति ह्वयति ह्वयते किन्तु भावे कर्मणि तत्र कर्मणि प्रयोगे तत्र हूयते आहूयताम्
गायतु तस्य गायतु धातु गै धातु वा गा धातु वा गै गायतु
गै
गै धातु गै अस्ति चेत् गै योग य योगतां नै दट् इस् नाट् रैट् नै गय्यतां रूपं न साधु नास्ति अहं मन्ये
सूत्राणि सन्ति इति कृत्वा तत्र प्रायशः तत्र गीयतां
गीयतां गीयताम्
एतद् पूर्वं दृष्टवन्तः खलु तत्र विशेष विशेषरूपाणि तत्र
दीर्घकारान्तधातूनां दीर्घ ईकारान्त भवति कर्मणि
हा तत्र गीयताम् इति
दीर्घीयते स्था स्थीयते इति सूत्रं न स्मरामि
दृष्टवन्तः तत्र आहूयते अपि दृष्टवन्तः तत्र पुनः एकवारं तत्र पश्यन्तु तत्र कुत्र अस्ति एतत् सर्वं हा तत्र वेदभगिनी कुत्र सन्ति अस्ति तत्र
ओके ओके हा ईकारान्तानाम् उकारान्त धातूनां कर्मणि प्रयोगे दीर्घरूपं भवति ईकारान्तानां दीर्घ उकारान्त ओके तो गा धातु उकारान्तधातोः रि उकारान्त
अस्ति भगिनि गीयते इति दृष्टवन्तः वयं
गीयताम् एव रूपम् आयाति तत्र गीयताम् अस्तु महोदय गीयताम् इकारान्तानाम् उकारान्तानां च धातूनां कर्मणि प्रयोगे दीर्घरूपं भवति
तत्र
परन्तु ये गै गा भवति गा किमर्थं गी भवति न जानामि
तत्र प्रक्रिया का इति तत्र प्रायशः द्रष्टव्यः अस्ति किन्तु तत्र गी
आकारान्तानां धातूनां कर्मणि प्रयोगे ई इति भवति पृष्ठसङ्ख्या 123 मध्ये अस्ति तत्र अभ्यासः तस्य अधोभागे आकारान्तानां धातूनां कर्मणि प्रयोगे ई इति भवति दादी भवति पापी भवति तदेव गा गी भवति
ओके
अस्तु महोदय गायता गीयताम् इति रूपं गै गा भवति गा गी भवति ओके अग्रे कर्तरि भावे प्रयोगे वर्धतां वृद्ध्यतां वृधातु
वर्धताम् इति अस्ति तत्र धातुः कः
वृद्ध धातु
धातुः वृद्ध्यताम् इति
रमतां रम्यतां
रम्यतां तत्र
वृद्धातु
तत्र उपादायां तत्र किं तत्र परिवर्तनं न भवति तत्र वर्धताम् इति
वृद्ध्यता वर्धतां रूपं किमर्थम् आयाति चेत् तत्र कार्यं गुणकार्यं भवति इति अहं मन्ये
तादृशं कार्यम् अत्र न भवति तत्र
वृद्ध्यतां
रम्यतां
रम्यतां कम्पतां कम्प्यताम्
अस्तु समीचीनम् अग्रे तत्र शोभा भगिनी अग्रे
लभतां लभ्यतां सेवतां तत्र आत्मनेपदी रूपमेव अतः यकारः एव आगच्छति सेवा सेव् इति इत्यस्य सेव्या सेव्यतां ददातु दीयताम् इति भवति तत्र तत्र दा धातुः पुनः दीर्घ आकारान्त धातुः तस्य दी इति दीयते इति दीयताम् इति भवति वदतु तत्र उद्यताम् इति दृष्टवन्तः बद्ध धातोः उद्यताम् इति भवति शृणोतु इति श्रूयताम् इति भवति तत्र
तत्र श्रुधातुः
श्रूयते इति आत्मनेपदी कर्मणि प्रयोगे श्रूयते इति तस्य श्रूयताम् इति लोट्लकारे जानातु इति तत्र ज्ञा इति धातुः ज्ञायते ज्ञायताम् इति भवति
ज्ञायताम् इति भवति समीचीनं हा अस्तु अग्रे नरेश महोदय
महोदय आलोकताम् आलोकताम् अत्र
यकारः मध्ये आगतः आलोक्यताम्
आलोक्यताम् लोकते
अपेक्षताम् अपेक्षताम् किम्
तत्र धातुः कः मूलधातुः अपेक्षताम् इति
ईक्षते ईक्षताम्
समीचीनम्
अप् उपसर्गः अस्ति उपेक्ष अपेक्षताम् कर्मणि रूपम् अपेक्षताम् यकारः आगतः
ईक्षताम् समीचीनम् अग्रे
अग्रे वर्तताम् वर्तताम् तत्र वृत् धातुः अस्ति वृत् धातु वर्तते लट्लकारे अस्ति लोट्लकारे वर्ततां अपि च भावे प्रयोगे वर्ततां वृत्यतां भवति
समीचीनं वृत्यताम् इति भवति
वृत्यता
यथा वर्ततां आसीत् तथैव वर्ततां वृत्यताम् इति भवति समीचीनं
वृत्यताम् शोभताम् अत्र धातु तु शुभ अस्ति शोभते लट्लकारे
अस्ति धातुः
शुभ लट्लकारे शोभते लोट्लकारे शोभताम् कर्मणि रूप धातु शुभ अस्ति शुभ्यताम्
शुभ्यताम् इति अस्ति समीचीनं महोदय तदैव अस्ति
शुभ्यताम् अग्रे तु श्येताम् अस्ति श्येतां तु दत्तमस्ति शय्यताम्
शय्यताम् अस्तु समीचीनम् अस्तु अग्रे अग्रेसरामः तर्हि तत्र वंशीसुधभगिनी तत्र यदा भवती वक्तुं शक्नोति वदतु सूचयतु अस्तु अग्रे तत्र शोभगिनी अग्रिमम् आरम्भं करोति वा
कर्मणि कर्तरिवाक्यं वा
न यदि तत्र पुस्तके इदानीं वयं तत्र अभ्यासं कुर्वन्तः स्मः यदि तत्र भवती पठितुं शक्नोति तदा सूचयतु अस्तु तर्हि तत्र शोभगिनी अग्रे तर्हि
यथोदाहरणं रिक्तस्थानानि पूरयत तत्र पश्यतु इति दृश् धातोः दृश्यतां दृश्येतां दृश्यन्तां दृश्यस्व दृश्येथां दृश्यध्वं दृश्यै दृश्या वहै दृश्या महै इति रूपाणि नवरूपाणि तत्र लोट्लकारे अधुना ज्ञा इति धातोः जानातु इति कर्तरि लोट् तत्र कर्मणि लोट् ज्ञायतां ज्ञायेतां ज्ञायन्तां ज्ञायस्व ज्ञायेथां ज्ञायध्वं ज्ञायै ज्ञायावहै ज्ञायामहै इति भवति
अस्तु तत्र जानातु इति तत्र कर्तृ लोट् अस्ति तत्र अन्यानि रूपाणि प्रथमपुरुषरूपाणि वदति वा तत्र जानातु जानन्तु
जानातु जानीताम् इति भवति वा महोदय जानातु जानीतां जानन्तु
इति एव प्रायशः अस्ति भगिनि अहं विस्मृतवान् अतः एव तत्र जानातु
भिन्नः एव अस्ति
जानीतां
जानन्तु
जानीतं जानीत
अनन्तरं मध्यमपुरुषे
जानीहि इति किमपि अस्ति खलु जानीहि
तत्र
एकक्षणं महोदय.
अस्तु तत्र
जानीहि जानीतं जानीत जानानि जानाव जानाम.
तत्र मूलविषयः नास्ति किन्तु एतदपि
समीचीनं महोदय. विस्मृतं
सम्प्रत्यय विकरणप्रत्यय जादातु सम्प्रत्यय
क्रयादिगणे क्रीणातु इति भवति. क्रीणातु क्रीणीतां क्रीणन्तु इति क्रीणीहि क्रीणीतं क्रीणीत क्रीणानि क्रीणाव क्रीणाम
इति समीचीनम्. अस्तु अग्रे तत्र उषा भगिनी अग्रिमं वदतु इति.
आं महोदय वदतु इति अस्ति. वदति उद्यते इति भवति. उद्यताम् उद्येताम् उद्यन्ताम् उद्यत्व उद्येत्थाम् उद्यध्वम् उद्यै उद्यावहे उद्यामहे इति भवति.
हा समीचीनम्. इदानीं तत्र कर्त्री लट् लकारः लोट् लकारः वदतु एकवारं. नाम वदतु
वदतु वदतां वदन्तु वद वदतात् वदतं वदत वदानि वदाव वदाम इति भवति.
अस्तु भगिनि. हा अस्तु उत्तममस्ति स्मरणम्. अस्तु समीचीनं भगिनि. अस्तु अग्रे वेदा भगिनि
लभतां कर्तरीरूपं तस्य कर्तरी लोटकारे लभताम् अस्ति तस्य रूपं लभ्यतां लभ्येतां लभ्यन्ताम् लभ्यस्व लभ्येथां लभ्यध्वं लभ्यै लभ्यावहै लभ्यामहै.
हा इति अस्ति समीचीनम्. अस्तु तर्हि इदानीं तत्र साक्षात् वाक्यानि सन्ति तत्र वाक्यानां परिवर्तनं कुर्मः. तर्हि तत्र नरेश् महोदय आरम्भं करोति वा.
आं महोदय. यथोदाहरणं कर्मणि परिवर्तयत. उदाहरणमस्ति सेवकः भारं वहतु. सेवकः भारं वहतु सेवकेन भारः उह्यताम्.
तत्र कर्तृपदं किं किम् इति एकवारं वदतु महोदय. तत्र
कर्तृपदं सेवकः अस्ति. तत्तु प्रथमविभक्ति अस्ति. भारं द्वितीय विभक्ति अस्ति. वहतु क्रियापदं कर्तृ अनुसरति. अग्रे सेवकः तस्य तृतीयविभक्ति सेवकेन भारं द्वितीयविभक्ति तस्य प्रथमविभक्ति भारः. वहतु वहतु तत्र कर्मणि प्रयोगे यकार आगतः. उह्यतां भवति सेवकेन भारः उह्यताम्.
तत्र व इति अस्ति चेत् तत्र उ इति भवति. तत्र सम्प्रसारणम् इति वदन्ति खलु तत्र. अस्तु वकारस्य उकारः भवति. समीचीनम्. अग्रे
अग्रे सारथिः रथं स्थापयतु. सारथिः रथं स्थापयतु. सारथिः तस्य विभक्ति सारथिना. सारथिना
तत्र प्रातिपदिकमस्ति. सारथिः इति पदस्य
सारथिन् सारथिन्
हरि हरिवत् सारथि अस्ति वा. सारथि
इति प्रश्नः. हरिवत् अस्ति वा अथवा सारथिन् हलन्तपदं वा अजन्तपदं वा.
हरिवत् अस्ति चेत् सारथिना इति रूपम् आयाति.
सारथिन् अस्ति सारि तत्तु तत् किं भवति.
सारथिन् अस्ति चेत् सारथी इति दीर्घहिकारान्त भवति.
तृतीयविभक्ति
न तत्र न महोदय
सारथिना एव
पृष्टवान् तत्र किम् इति.
वदतु भगिनि
प्रातिपदिकं किम् इति पृष्टवान्. तत्र सारथिम् इति अस्ति चेत् प्रथमविभक्ति सारथिः इति भवितुम् अर्हति वा?
सारथि तत्र गुणी
न सारथिन् अस्ति चेत् प्रथमविभक्ति सारथि एव.
सारथि इति दीर्घ भवति
तत्र सारथिः इति दत्तं तदेव तत्र हरि शब्द एव तस्य विभक्ति भवति इति अहं मन्ये. प्रातिपदिकं हरि एव सारथि एव सारथिन् अस्ति चेत् प्रथमपुरुष एकवचनं सारथि एव आयाति. सारथिः नास्ति सारथि आयाति आत्मन् आत्मा एव.
हरिः
तदेव सारथिः इत्युक्ते हरिः एव हरि इव तस्य रूपम् आयाति हरिणा सारथिना.
अस्तु समीचीनम्. अत्र अजन्तपदम् इति
तृतीयविभक्ति
सारथु तस्य रूपं स्था एव.
एकनिमिष भगिनि भगिनि तत्र नरेश महोदय कुर्वन् अस्ति खलु?
आमां नरेश महोदय एव प्रश्नं पृच्छामि
भगिनि. एकनिमिष सः करोति. अस्तु नरेश महोदय.
सारथिः तत् अजन्तधातुः अस्ति चेत् तृतीयविभक्ति सारथिन रथं द्वितीयविभक्ति रथः प्रथमविभक्ति सारथिन रथः स्थापयतु स्थापयतु. अत्र कर्मणिप्रयोगे स्थीयतां
न न स्थीयतां तिष्ठतु इति नास्ति तत्र स्थापयतु णिच् अस्ति महोदय पुनः.
ओ
नाम तत्र एक एकस्थाने अस्ति चेत्
स्थाप्यतां
स्थाप्यतां नाम अन्यत् किमपि तत्र प्रेरणा अस्ति तत्र खलु. तत्र पठति पाठयति अन्येषां कृते प्रेरणा भवति खलु. तन्न अन्यत् किमपि तत्र एकस्मिन् स्थले स्थापयति खलु. सः तिष्ठति इति नास्ति किन्तु अन्यत् किमपि स्थापयति नाम तत्र प्रेणिच् अस्ति महोदय. तत्र स्थाप्यताम् इति एव भवति मन्ये.
स्थाप्यताम्
अथ पुनः वाक्यं वदतु.
सारथिः रथं स्थापयतु सारथिना रथः ताम्
तत्र सारथि इति सारथिना दीर्घ आकारः
सारथिना सारथिना रथः स्थाप्यताम्.
इदानीं तत्र नकारः वा णकारः वा
सारथिना तत्र तु नत्वं भवति न भवति. अत्र मध्ये थ अस्ति तत्तु तवर्गस्य अस्ति अतः नत्वं न भवति.
तत्र बाधा अस्ति. समीचीनं. रेपः अस्ति किन्तु रेपः अपि फलं तयोः मध्ये तत्र बाधा अस्ति. तत्र पवर्गीय स्वरः नास्ति अतः अन्तवर्गीय अस्ति अतः बाधा भवति. समीचीनं
चेत् बाधा अस्ति नत्वं न भवति.
समीचीनं. सारथिना रथः स्थाप्यताम् इति
रथः स्थाप्यताम्
अस्तु समीचीनम्. अग्रे उषा भगिनी.
आं महोदय. भक्तः देवं ध्यायतु. भक्तः कर्तृपदमस्ति देवं कर्मपदमस्ति ध्यायतु क्रियापदमस्ति. अपि कर्मणि प्रयोगे भक्तेन देवः ध्यायताम् ध्यायताम् इति भवति वा महोदय? ध्याय
तत्र ध्यै इति पुनः तत्र गह्यता आसीत्
धीयताम् इति भवति अथवा
तत्र ध्या भावे ध्यायते इति एव अस्ति भगिनि.
अस्तु महोदय. अतः ध्यायताम् इति एव भवति वा महोदय?
हा ध्यायताम् इति एव भवति भगिनि तत्र किन्तु भक्तः देवं ध्यायतु वाक्यं वदतु
भक्तेन देवः ध्यायताम्
हा भक्तेन देवः ध्यायताम् इति एव अस्ति अस्तु समीचीनम् अग्रे वेदा भगिनि
महोदय योद्धाः योद्धाः शङ्खनादं
शृण्वन्तु
शङ्खनादं शृण्वन्तु योद्धाः प्रथमपुरुष बहुवचनरूपं योध कर्तृपदमस्ति योध युद्ध धातु योधा शङ्खनादं कर्मपदमस्ति शङ्खनाद नादः तस्य कर्मपदं शङ्खनादं शृण्वन्तु लोट्लकारे कर्तरि प्रयोगे लोट्लकारे बहुवचने शृण्वन्तु योद्धाः आश्रित्य क्रियापदम् अनुसरति शृण्वन्तु इति रूपमायाति तत्र कर्मणि प्रयोगे योद्धाः योद्धाः योधः योधौ योद्धाः अकारात् रामैः योद्ध योधैः शङ्खनादः शृण्वन्तु तत्र शृण्वन्तु तत्र न किं वदामि योद योधैः शङ्खनादः शङ्खनादः ताम् इति आयाति न यतां यतां श्रूदातु श्रूयतां योधैः शङ्खनादः श्रूयताम्
तत्र नादः इति प्रायश नादम् इति अस्ति वा नादः इति पुल्लिङ्गे वा नपुंसकलिङ्गे वा
नादं वा नपुंसकलिङ्गे वा पुल्लिङ्गे वा
न जानामि जानाति
नादः नादौ नादाः नादं नादे नादानि पुल्लिङ्ग एव मन्ये महोदय पुल्लिङ्ग एव किमर्थं चेत् नादं यत् नपुंसके अस्ति चेत् नादं नादे नादानि शब्दं न शृणोति
शङ्खनादः इति वा अस्तु
अहं मन्ये शङ्खनादः एवं नादः नादे नादाः नादं नादे
पुल्लिङ्गे
पुल्लिङ्ग एव महोदय
किं वदतु भगिनि योधैः
योधैः शङ्खनादः श्रूयतां
श्रूयताम् अस्तु दीर्घ उकार दीर्घ
श्रूद
तत्र ऋकारः तत्र नास्ति श्रूधातुः तत्र स्वरः
श्रूयतां
किन्तु श्रूयतां तत्र रकारः अस्ति अपि उकारः अस्तु समीचीनम् अस्तु शोभोभगिनी अग्रे
भवान् कामभोगान् न समीहताम् तत्र भवान् इति कर्तृपदं कामभोगान् कर्मपदं बहुवचने समस्तपदमपि तत्र कामभोगान् इति न सम् तत्र सम् इति उपसर्गः इह् इह् इति धातुः ईहताम् तत्र भवान् इत्यस्य कर्तृपदस्य तृतीयविभक्तौ भवता तत्र कामभोगाः इति भवति भवता कामभोगाः न समीह्यताम् तत्र आत्मनेपदी एव रूपम् अस्ति अतः तत्र समीहताम् इत्यस्य समीह्यताम् यकारः आगच्छति भवता कामभोगाः न समीह्यताम् इति भवति महोदय
तत्र ई इति धातुः तत्र समीह्यताम् किं भगिनि
बहुवचने समीहन्ता
हा तत्र
सत्यं समीह्यन्तां समीह्यन्तां भवति समीह्यतां
भवता कामभोगाः न समीह्यन् तां समीचीनं न तत्र इह् समीह समीह इति अस्ति चेत् तत्र
ईह्यताम्
समीहतां तत्र नाम तत्र आत्मनिपदि धातुः अस्ति खलु तत्र समीहते समीहते समीहितां समीहते नाम तत्र इच्छति इति अर्थे अतः तत्र इच्छा मास्तु, तत्र कामभोगाः कामभोगान् न इच्छन्तु, न इच्छतु, भवान् कामभोगान् न इच्छन्तु इति समीह्यतां, भवता कामभोगाः न समीह्यताम्। समीचीनं भगिनि, अस्तु अग्रे नरेश् महोदय।
महोदय भवान् भवन्तः परमां गतिं प्रयान्तु, भवन्तः तत् बहुवचने अस्ति, तस्य तृतीयविभक्ति भवद्भिः, भवद्भिः परमां गतिं, तत् विशेष्यविशेषणम् अस्ति, प्रथमविभक्ति परमागति गतिः
मतिः शब्दवत् तत्र स्त्रीलिङ्गे
परमागतिः प्रयान्तु प्रयान्तु
धातुः कः
य धातुः किमस्ति य प्र तु उपसर्ग अस्ति यत् यत् धातु यत् धातुः
हा तत्र याति इति अस्ति याति
याति अस्तु अस्तु याति अस्ति
या इति धातुः
कर्मणि प्रयोगे मध्ये यकारः आगत यायताम् उपसर्ग अस्ति प्रयायताम्
इति अस्ति
यायताम्
तत्र एकवचने
परमा गतिः एकवचने भवान् परमां गतिं
भवन्तः परमां गतिं प्रयान्तु प्रयान्तु इति बहुवचने अस्ति किन्तु यदि कर्मणि प्रयोगं कुर्मः तत्र भवद्भिः किं भवति वाक्यं किं भवति भवद्भिः
परमा गतिः भवद्भिः परमा गतिः प्रयायताम्
तत्र
तत्र तु एकवचने अस्ति गतिः
हा गतिः एकवचने अस्ति कर्मपद
गतिः एकवचने अस्ति अतः प्रयायताम्
प्रयायताम् प्रयायतं नाम तत्र प्रयाति नाम तत्र गच्छति इति तत्र याति प्रयाति अपि तत्र समानार्थः तत्र गच्छति परमां गतिं प्राप्नोति अपि वक्तुं शक्नुमः तत्र भवन्तः परमां गतिं प्रयान्तु प्राप्नुवन्तु इति तादृश अर्थः अस्ति अथवा तत्र गच्छन्तु अस्तु समीचीनं पुनः बेदा भगिनी अग्रे
अहं वा महोदय छात्रः पाठौ पठतु छात्रेण पाठौ पठ्येताम्
इदानीं किञ्चित् विवृणोतु किम् अभवत् किमस्ति
पाठौ किमस्ति पाठः पाठौ पाठाः ओके पाठौ पाठौ पाठाः पाठौ द्वितीयविभक्ति तदेव पाठौ पठ्येताम् ओके छात्रः कर्तृप्रयोग कर्ता अस्ति पाठौ इति कर्मपदमस्ति द्वितीय द्विवचने पाठौ पठतु छात्रः अनुसृत्य तस्य रूपम् एकवचने अस्ति पठतु तस्य कर्मणि रूपमस्ति छात्रेण तृतीयाविभक्ति कर्ता तृतीयाविभक्ति भवति कर्मपदं पाठौ एव अस्ति तत्र द्विवचने पाठौ पाठौ एव अस्ति तद् कर्ता कर्मपदम् एकवचने अस्ति पाठौ सारि द्विवचने 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 प्रथमवृष द्विवचने पठ्येताम् तस्य पट धातु अस्ति पट योगः एतां किं भवति किमर्थं पट एतां द्विवच पाठौ द्विवचने अस्ति तदेव तस्य रूपं पट योगः य योगः इतां पठ्येतां तस्य
रूपं किं भवति
किं महोदय
पठ्येताम् इति द्विवचने अस्ति इति
द्विवचने अस्ति द्विवचने अस्ति पाठम् अनुसृत्य तस्य रूपं
द्विवचने एकवचने रूपं किम् अस्ति पठ्येताम् इति द्विवचने अस्ति एकवचने
एकवचने पठ्यताम्
पठ्यतां पठ्येतां
पठ्यन्तम्
समीचीनम्
सः अश्वौ पश्यतु सः कर्ता अस्ति अश्वौ एकवारं पुनः द्विवचने अस्ति पश्यतु इति कर्ता
विभक्ति का तत्र
द्विवचनं अश्वौ द्विवचनं कर्मपदं
विभक्तिका
द्वितीया विभक्ति द्वितीया विभक्ति
द्वितीया विभक्तिः अस्तु
पश्यतु सः तेन अश्वौ अश्वौ एव प्रथमा विभक्ति द्विवचने अश्वौ एव अस्ति तेन अश्वौ अश्वौ पश्येताम्
न न पश्यतु इति
दृश्येत दृश्येत
पुनः पूर्णवाक्यं
तेन अश्वौ दृश्येताम्
दृश्येताम् समीचीनं तेन अश्वौ दृश्येताम् इति भवति समीचीनम् अस्तु अग्रे शोभा भगिनि
त्वं युद्धं कुरु इति तत्र त्वम् इति कर्तृपदं त्वया इति भवति युद्धं तत्र युद्धं युद्धः भवति युद्धः भवति भवति किल युद्धः इति भवति किल महोदय
चिन्तयामि नपुंसकलिङ्गपदमेव इति मन्ये
युद्धम् अस्तु युद्धमेव कर्तृपदं कुरु इति तत्र क्रियापदं तत्र तु मध्यमपुरुषे त्वम् इत्यस्य त्वया इति तृतीयविभक्ति अधुना युद्धं युद्धमेव त्वया मध्यमपुरुषे अस्ति चेदपि तत्र प्रथमपुरुषे एव कर्मणि प्रयोगः भवति त्वया युद्धं तत्र क्रियताम्
क्रियताम् इति प्रथमपुरुषे एव भवति वा क्रियताम् अथवा मध्यमपुरुषे भवति वा
प्रथमपुरुषे एव भवति
किमर्थं
तत्र मया यदि मया श्रूयते मया ज्ञायते इति तत्र श्रूयते ज्ञायते प्रथमपुरुषे एव सन्ति यतोहि मया अहम् इति
अत्र किमर्थं तत् समीचीनमस्ति इति वदतु तत्र क्रियताम् इति एव समीचीनं किन्तु किमर्थं
किमर्थं चेत् तत्र कर्तारं न अनुसरति क्रियापदं
कर्मपदं किम्
कर्मपदम् एव अनुसरति अतः
कर्मपदं
तत्र कर्मणि प्रयोगे
युवां यूयं नास्ति अहम् आवां वयं नास्ति अतः प्रथमपुरुषे एव अस्ति खलु कर्मपदम्
आम् तत्र तु तस्य प्रथमपुरुषे इति किमपि
अतः
युद्धम् इति कर्मपदं प्रथमविभक्तौ भवति तदेव परिवर्तनं तत्र अतः तत्र यतोहि
प्रथमविभक्ति इति एका वार्ता अन्यत् अस्ति तत्र कर्मपदं प्रथमपुरुष नामपदम् अस्ति
आम्
नाम तत्र त्वं युवां यूयं नास्ति अहम् आवां वयं नास्ति खलु तत्पदम्
आम् महोदय
मध्यमपुरुषे अस्ति चेत् केवलं तत्र पदं तत्र त्वं युवां यूयं भवति उत्तमपुरुषे अहम् आवां
वयं भवति
अतः तत्र षड् पदानि सन्ति चेत् एव तत्र मध्यमपुरुषः वा उत्तमपुरुषः इति भवति किन्तु एतानि षड् पदानि नास्ति न सन्ति चेत् सर्वदा प्रथमपुरुषरूपम् एव भवति खलु कर्मपदम्
किं नास्ति चेत् महोदय क्षम्यतां
कर्मपदं तत्र कर्मपदं युद्धम् इति अस्ति खलु भगिनि
आम्
तत्र अस्तु तत्र एतत् कुर्मः तत्र सः मां पश्यति इति अस्ति सः मां पश्यति तत्र
तेन अहं दृश्ये
हा किमर्थं दृश्ये इति आगतम् इदानीं
तत्र उत्तमपुरुषः भवति किमर्थं चेत् तत्र तेन तत्र तेन इति कर्तृपदम् अधुना अपि च तेन सः मां पश्यति इति तत्र सः इत्यस्य तेन इति भवति माम् इति तत्र अधुना कर्मपदं भवति तस्य मां पश्यति इति अतः तत्र माम् इत्यस्य अहं भवति अपि च पश्यति इत्यस्य दृश्ये इति भवति
किमर्थं दृश्ये इति उत्तमपुरुषरूपम् अस्ति
तत्र कर्मणि प्रयोगे किमर्थम् इति तत्र रूपाणि तादृशानि सन्ति महोदय तत्र
किमर्थम् उत्तमपुरुषे एकवचनरूपम् अस्ति इति प्रश्नः
माम् इति एकवचने अस्ति
अहम् इति कर्मपदम् अस्ति
अहम् इति अहम् इति कर्मपदम् एकवचने अस्ति
कर्मपदमनुसृत्य क्रियापदं भवति खलु
आमाम् आम् तत्र
अहम् इति उत्तमपुरुषरूपं खलु
आम्
अतः एव तत्र दृश्ये दृश्ये इति अस्ति इदानीं तत्र तत्र कर्मपदम् अहम् अस्ति चेदेव तत्र दृश्ये इति भवति तत्र आवाम् अस्ति चेत् दृश्या वहे इति भवति खलु तादृश
दृश्या वहे दृश्या महे इति भवति चेत् तत्र आवां दृश्यावहे अथवा वयम् अस्ति चेत् आवां वयं दृश्यामहे इति भवति
अतः तत्र कर्मणि प्रयोगे उत्तमपुरुषरूपाणि क्रियापदस्य उत्तमपुरुषरूपाणि कदा भवन्ति यदा कर्मपदम् अहम् आवां वयम् अस्ति चेदेव खलु
आम् आम्
मध्यमपुरुषरूपं कर्मणि प्रयोगे क्रियापदस्य मध्यमपुरुषरूपाणि कथं कदा भवन्ति
तदेव तत्रापि त्वं युवां यूयम् इति कर्मपदम् अस्ति चेत्
तेषां
भवति
एव इदानीं तत्र अहम् आवां वयम् इदानीं कर्मपदम् अहम् आवां वयं नास्ति अपि त्वं युवां यूयम् अपि नास्ति चेत् तत्र क्रियापदस्य कर्मप्रयोगे क्रियापदस्य रूपं सर्वदा प्रथमपुरुषे एव भवति खलु
आम् तदर्थं तत्र कथं वदनीयम् इति न ज्ञातं मया किन्तु
धन्यवादः महोदय अस्ति युद्धम् इति अस्ति अतः तत्र अहम् आवां वयं नास्ति अतः उत्तमपुरुषः न भवति त्वां युवां युवयमपि नास्ति अतः मध्यमपुरुषरूपमपि न भवति
तत्र तत्र कर्मपदस्य स्थाने यदा उत्तमपुरुष वा मध्यमपुरुष वा भवति तदा एव तस्य रूपस्य क्रियापदं भवति
भवति वाक्ये भवति नो चेत् न भवति नो चेत् न भवति अतः तत्र युद्धम् इति अस्ति अतः युद्धं क्रियताम् इति
त्वया युद्धं क्रियताम्
इति अग्रे उच्चा भगिनि
आं महोदय त्वं सेनापतिः सेनां नयतु कर्तृपदं सेनापतिः कर्मपदं सेनां नयतु क्रियापदम् अधुना सेनापतिना सेनां नपुंसकलिङ्गे अस्ति इति मन्ये महोदय
किमर्थं
सेना स्त्रीलिङ्गे अस्ति इति मन्ये महोदय
स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा
तदेव क्लेशः भवति महोदय पुंलिङ्गे वा नपुंसकलिङ्गे वा इति
किन्तु एतत् पदं भवती जानाति बहुवारम् एतत् पदम् आगतं
स्त्रीलिङ्गम्
स्त्रीलिङ्गं
स्त्रीलिङ्गम् अस्ति अत्र अतः सेनापतिना सेना नयतु नी भवति अतः नीयताम् इति भवति
पूर्णवाक्यं
सेनापतिना सेना नीयताम्
हा नीयतां दीर्घैकार
नीयताम्
नीयताम् सेनापतिना सेना
नीयताम्
समीचीनम् अस्तु किमर्थं तत्र प्रथमपुरुषरूपं नीयताम् इति
आम् सेनापतिः सेनां नयतु तत्र सेनाम् इति मध्यमपुरुषे अथवा प्रथमपुरुषे उत्तमपुरुषे न अस्ति अतः सेना इति भवति यदि त्वं युवां यूयम् अथवा अहम् आवां वयम् अस्ति चेत् परिवर्तनं भवति
अहं वयं किं पदम् अस्ति चेत्
उत्तमपुरुषस्य अथवा मध्यमपुरुषस्य पदम् अस्ति
कर्तृपदं वा कर्मपदं वा अहं
कर्मपदं महोदय
यदि कर्मपदम् उत्तमपुरुषे मध्यमपुरुषे पदम् आसीत् चेत् तत्र क्रियापदस्य अपि तादृशरूपं भवति किन्तु अत्र सेना तादृशं नास्ति अतः नीयतामिति रूपमेव भवति समीचीनम् अस्तु अग्रे तत्र
महोदय अधुना वदामि तदनन्तरं वक्तुं न शक्नोमि वदामि वा
करोतु भगिनि
यूयं लोकसङ्ग्रहं कुरुत इति अस्ति कर्तृप्रयोगे तत्र कर्मणि प्रयोगे युष्माभिः लोकसङ्ग्रहं क्रियताम् इति
युष्माभिः लोकसङ्ग्रहं क्रियताम् समीचीनं भगिनि अस्तु अस्तु अग्रे वेदा भगिनि
महोदय मुमुक्षुः अशोच्याय न ददातु मुमुक्षुः अशोच्याय न ददातु अशोच्याय इत्युक्ते किं न जानामि मुमुक्षुः अशोच्याय न ददातु मुमुक्षुः कर्ता अस्ति अशोच्याय कर्मपदं किमर्थं न जानामि तत्र अशोच्याय न ददातु किं
अस्तु तत्र किं किम् अस्ति वाक्ये वदतु भगिनि किञ्चित्
मुमुक्षुः कर्ता अस्ति
कर्तृपदम्
अशोच्याय तस्य रूपं रामाय इति वा अशोच्याय
अतः विभक्ति का तत्र
तृतीया न चतुर्थी
समीचीनं
चतुर्थी न ददातु भावे प्रयोग दादातु वा भावे प्रयोगे वा दादातु तत्र मुमुक्षुः तस्य तृतीया विभक्ति किं भवति मुमुक्षुः मुमुक्षुं न मुमुक्षु वा मुमुक्षुः गुरुवत् भवति वा मुमुक्षुः
भवती वदतु
मुमुक्षु अशोच्याय न दादातु दा आकारान्तानां धातूनां कर्मणि प्रयोगे ई भवति दा दी भवति दीयताम् न तत्र दीयताम् आम् दीयतामेव अशोच्याय न दीयताम्
न पूर्णवाक्यं
मुमुक्षुना अशोच्याय न दीयताम्
न दीयताम् अस्तु तत्र मुमुक्षुणा इति अस्ति वा अथवा मुमुक्षुना इति अस्ति वा णत्वं भवति वा न भवति
किमर्थं चेत् तत्र ककारशकार अस्ति
मूर्धनिषकारः
अस्ति परा स्वर अस्ति उकारः तदेव तत्पश्चात् नकार आयाति अट्कुप्वङ् व्यवायेपि सूत्रेण तत्र णत्वं भवति
समीचीनं भगिनि अतः मुमुक्षुणा
अशोच्याय
अस्तु समीचीनम् अस्तु अग्रे नरेश् महोदय
त्वं क्षेत्रज्ञं भगवन्तं जानीहि त्वं क्षेत्रज्ञं भगवन्तं जानीहि अत्र त्वं कर्तृपदमस्ति क्षेत्रज्ञं भगवन्तं कर्मपदं जानीहि क्रियापदं तत्र त्वं तस्य परिवर्तनं तृतीयविभक्ति त्वया क्षेत्रज्ञं भगवन्तं क्षेत्रज्ञः प्रथमविभक्ति भगवन्तं तस्य प्रथमविभक्ति भगवान् भगवान् न शृणोतु
नरेश महोदय
आम् किम् अभवत्
नरेश महोदय
आम् अहं वदामि
श्रूयते वा
किम् अभवत् आम् अहं श्रूयामि किम् अभवत् अहम् अस्मि अत्र
श्रूयते किम् अभवत् श्रूयते श्रूयते नरेश महोदय
निरञ्जन महोदय न श्रूयते
प्रायशः
अस्तु 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 अहं चिन्तयामि
भवतः अधुना गतवान् अस्ति
प्रायः पुनः आगतः
आगच्छति इति मन्ये
प्रायः प्रयत्नं करोति
आम्
आगच्छति प्रायः तस्य इण्टर्नेट् न कार्यं करोति इण्टर्नेट्
मध्ये क्लेशः अस्ति इति मन्ये
अस्तु अहं तदा करोमि त्वं क्षेत्रज्ञं भगवन्तं जानीहि
श्रूयते वा इदानीम् न जानामि किम् अभवत् क्षम्यताम् अस्तु अस्तु नरेश महोदय क्षम्यतां महोदय इदानीं वदतु पुनः तत्र
त्वं क्षेत्रज्ञं भगवन्तं जानीहि त्वं तस्य तृतीयविभक्ति त्वया क्षेत्रज्ञं भगवन्तं तत्तु द्वितीयविभक्ति कर्मपदमस्ति तस्य प्रथमविभक्ति क्षेत्रज्ञः भगवान् जानीहि ज्ञाधातुः कर्मणि ज्ञायताम् त्वया क्षेत्रज्ञः भगवान् ज्ञायताम्
हा ज्ञायताम् प्रथमपुरुषे अस्ति यतोहि भगवान् प्रथमपुरुषे अस्ति अस्तु समीचीनं हा अस्तु अग्रे वंशी सुधा भगिनि
आं महोदय एकनिमिषः बुधः न तत्र त्रयोदश बुधः तत्त्वं जानातु बुधः बुधेन तत्त्वः जानीयात् जानातु इति अस्ति न जानी ज्ञायताम् इति भवति
न ज्ञातुः
तत्र लोट् लोट् लक लोट् लकार प्रथमपुरुष एकवचनं जानातु इति अस्ति जानातु इति अस्ति ज्ञादातु अस्ति ज्ञायताम् इति अस्ति न
समीचीनं समीचीनं
बुधेन तत्त्वः ज्ञायताम्
तत्त्वमेव नपुंसकलिङ्गे एव अस्ति
ओ नपुंसकलिङ्ग अस्तु बुधेन तत्त्वं ज्ञायताम् इति भवति
बुधेन तत्त्वं
ज्ञायताम्
समीचीनं भगिनि हा समीचीनम् अस्तु अग्रे तत्र शोभा भगिनी अग्रे
यूयं राज्यं भुङ्ध्वं यूयम् इति युष्माभिः राज्यं राज्यम् एव भुङ्ध्वम् इति भुज्यधातुः भुज्यताम् इति भवति
हा भुज्यधातुः हा तत्र भुज्यधातोः
भुज्यताम्
हा तथैव भवति इति हा भुज् भुज्धातुः कर्त्री हा भुज्यते भुज्यताम् हा समीचीनं भगिनि भुज्यताम् हा तत्र भुज्यते अथवा तत्र यत् दत्तमस्ति तत्र भुङ्क्त्वं यूयं राज्यं भुङ्क्त्वं तत्र अर्थः कः इत्युक्ते तत्र भुज्धातोः अर्थद्वयमस्ति एकमस्ति तत्र तत्र किं बालकः तत्र फलं भुनक्ति इत्युक्ते फलं भुनक्ति नाम खादति साक्षात् खादति किन्तु अत्र यूयं राज्यं भुङ्क्त्वम् इति तत्र तादृश
भोगे भोगः इति अर्थे
न न प्रोटेक्ट् इति अस्ति
प्रोटेक्ट् इति अस्तु
अस्तु हा अत्र तत्र राज्यस्य तत्र रक्षणं करोतु इति अतः तत्र भुङ्क्त्वम् इति अस्ति किन्तु तत्र अर्थः भिन्नः तत्र खादनम् इति नास्ति अन्यः अर्थः अस्ति अत्र अस्तु तर्हि अग्रे तत्र उषा भगिनी अग्रे
आं महोदय अग्रजः अनुजौ नयतु अग्रजः कर्तृपदम् अनुजौ रामः रामो रामः अनुजम् अनुजौ कर्मपदं द्वितीयविभक्तिः अस्ति तत्र नयतु इति अस्ति अपि अधुना अग्रजेन तृतीयविभक्ति अनुजौ प्रथमविभक्त्यन्तम् अनुजौ एव भवति न धातु नीधातु नीयताम् इति परिवर्तनं भूत्वा अग्रजेन अनुजौ नीयताम् इति भवति पूर्णवाक्यम्
अग्रजेण अथवा णत्वम् अस्ति वा नास्ति वा तत्र
नास्ति महोदय
अग्रजेन अस्तु अग्रजेन अनुजौ
नीयतां दीर्घ ईकार
नीयतां तत्र नीयताम् इति पुरुषः कः वचनं किम्
पुरुषः प्रथमपुरुषः एव भवति महोदय
अस्तु वचनं
वचनं प्रथमपुरुष एकवचनं
किमर्थम्
ओ अनुजौ अनु
कर्मपदं किमस्ति
परन्तु
कर्मपदं
अनुजौ अनुजौ कर्मपदम् अस्ति महोदय
तस्य वचनं किम्
द्विवचनं
इदानीं कर्मणि प्रयोगे नियमः कः क्रियापदस्य वचनं
कर्मणि प्रयोगे नियमः प्रथमपुरुषे
न नियमः अस्ति क्रियापदस्य वचनं पुरुषः तत्र कथं भवन्ति
प्रथमपुरुषे एकवचने एव भवति
कर्मपदम् अनुसृत्य एव भवति खलु
आं महोदय कर्मपदम् अनुसृत्य भवति परन्तु वयं पठितवन्तः प्रथमपुरुषे एकवचने भवति इति अपि मम प्रश्नः अस्ति यदि
कुत्र पठितवन्तः प्रथमपुरुषे एकवचने भवति इति कुत्र पठितवन्तः वयं
भावे प्रयोगे
भावे प्रयोगे एतद् भावे प्रयोगः वा
न महोदय
अतः किमर्थं भावे प्रयोगस्य नियमः इदानीं वदति भवती
सो नीयताम् इति भवति
समीचीनम् अतः पुनः वाक्यं वदतु भगिनि समीचीनम्
अग्रजेन अनुजौ नीयेताम्
समीचीनं नीयतां नीयन्ताम् समीचीनं भगिनि यतोहि अनुजौ इति द्विवचने समीचीनम् अस्तु समीचीनम् अस्तु इदानीं समयः अपि जातः किन्तु वयं बहु किमपि कृतवन्तः अद्य समीचीनमस्ति अस्तु तर्हि तत्र शोभा भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि
आं महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय नमस्ते
धन्यवादः महोदय
धन्यवादः
धन्यवादः
नमस्कारः
नमस्कारः महोदय